नमश्चण्डिकायै ओम् राजोवाचो विचित्रमिदमाख्यातम् भगवन् भवतामव देव्याश्चर्माहाभ्यम् रक्तबीजवदाश्रितम् भूयश्चेच्छाम्यहम् श्रोतुम् रक्तबीजे निपादिते सकारशुम्भो यत्कर्मोऽधिशुम्भस्यातिकोपनः ऋषिर्वाचो सकारकोपमधुरम् रक्तबीजे निपादिते शुम्भासुरोऽधिशुम्भश्च हतेष्वन्येषु चाहवे हन्यमानम् महासैन्यम् विलोक्यामर्षमध्वान् अप्यरावन्यशुम्भोत मुख्यया सुरसेनया तस्याकृतस्तदा पृष्ठे पार्श्वयोश्च महासुराः सन्दष्टौष्टपराकृता हन्तुम् देवीमुपायौ राजकाम् महावीर्य शुम्भोऽपि सुलदैर्भा नियन्तुम् चण्डिकाम् कोपात् कृत्वा युद्धम् तु मातृभिः ततो युद्धमतीवासीत् देव्या शुम्भनिशुम्भयोः शरवर्षमतीवोगरम् मेघयोरिव वर्षतोः चिच्छेदास्ताम् शरास्ताभ्याम् चण्डिकास्वशरोत्करैः तारयामास्ताङ्गेषु शस्त्रौ वैरसुरेश्वरौ निशुम्भो निशतम् षड्कम् चर्म चादाय सुप्रभम् अताडयन्मूर्निसिंहम् देव्या वाहनमुत्तमम् ताडितेवाहने देवी शुभप्रेणासिमुत्तमम् निशुम्भस्याश्चिच्छेद चर्म चाप्यष्टचन्द्रकम् छिन्ने चर्मणि खड्गे च शक्तिम् चिक्षेप सोऽसुरा रामप्यसिद्धा चक्रे चक्रेणाभिमुखा गताम् ओकान्मातो निशुम्भोत शूलम् जग्राहदानवा आयान्नम् विपादेन देवी तच्चापि चूर्णयो आ विद्याजगताम् सोऽपि चिक्षेप चण्डिकाम् प्रति सापि देव्यादिशूलेन भिन्ना भस्मत्वमागता ततः परशुहस्तम् आयान्तम् दैत्यपुङ्गवम् आहत्य देवि बाणौ वैरपातयत भूतले तस्मिन् निपतते भूमौ निशुम्भे भीम विक्रमे रातर्यतीव संक्रुद्ध प्रयोहन्तुमम्बिकाम् सरथसरथात्युच्चैर्गृहीत परमायुधैः हृदयैरष्टाभिरुदैर्व्याप्याशेषम् बभौ नभा तमायान्तम् समालोक्य देवी शङ्कमवादयतो याशतम् चापि धनुषश्चकारातीव दुःस्थम् पूरयामास कुबोधय भण्डरासुरेण च समसदैतसैन्यानाम् तेजो वधविधायिना सिंहो महानादैस्त्याशितैव महामदैः पूरयामास गगनम् गान्धदैव निशोदशो तत्काले समुत्पत्य गगनम् क्षमामताडयतु तदाभ्याम् तन्निनादेन प्राक्सुनास्ते तिरोहिताः अट्टाट्टहासमशिवम् शिवदूती चकार तैश्चैव सुरास्तेषु शुम्भः कोपम् परम् ययौ दुरात्मनिष्ठश्चेदीयाजाराम्बिका यदा तदा जयत्रभेदम् देवैराकाश संस्थितैः शुम्भेणागत्या शक्तिर्मुक्ता ज्वालादिभीषणा आयान्ति वन्दिकूटाभासा निरस्ता महोल्कया सिंहनादेन शुम्भस्य व्याप्तम् लोकत्रयान्तरम् निर्घातनिस्वनोघोरोचितवानवनीपते शुम्भमुक्तान्शरान् देवी शुम्भान्शरान् चिच्छेदसुचरैरुग्रैः शतशोतसहस्रशः ततः सा चण्डिका कृता शूलेनाभिषकानतम् स्वदाव्यतो भूमौ मूर्तितो निपपातः ततो शुम्भः सम्प्राप्य चेतनामात्तकार्मुका आचकानशरैर्देवी कालीम् केसरणम् तथा पुनश्च कृत्वा बाहूनामयुतम् धनुजेश्वरा चक्रायुधैर्दितश्छादयामास चण्डिकाम् ततो भगवती कृता दुर्गा दुर्गाभिनाशिनी चिच्छेदतानि चक्राणि सुशरैः सायकाम् सुताम् ततो निशुम्भो वेगेन गदा मादाय चण्डिकाम् अभ्यदावत वै हन्तुम् दैत्यसेना समावृता तस्यापतैवाशु गदाम् चिच्छेद चण्डिका खड्गेण शतारेण सशूलम् समाददे शूलास्तम् समायान्तम् निशुम्भमुरार्दनम् हृदयविव्यादिशूलेन वेगाविद्धेन चण्डिका भिन्नस्य तस्य शूलेन हृदयान्यस्रुतोऽपरः महाबलो महावीर्यश्रेष्ठेति पुरुषोपदन् तस्य निष्कामतो देवी प्रहस्य समवर्तः शिरश्चिच्छेदखड्गेन ततो सा उपदद्भुवि ततसिंहशकादोकरम् तुंष्टाक्षुण्णशिरोधरान् असुरान् तान्तदा काली शिवदूती तदा परान् कौमारी शक्तिनिर्भिन्ना केचिन्नेशुर्महासुराः ब्रह्माणि मन्त्रभूतेन तो ये नान्ये निराकृताः माहेश्वरीशूलेन भिन्ना वेतुसदा परे वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि खण्डम् खण्डम् चक्रेण वैष्णव्यादानवाकृताः वज्रेण चेन्द्रियसदाग्रौ युक्तेन कृता परे केचित् विनेश्वरसदा केचित् नष्टामवाहवात् भक्षिताश्चापरे काली शिवदूती मृगाधिपैः जगदम्बार्पणमस्तु ॐ नमश्चण्डिकायै ॐ ऋषिर्वाच निशुम्भम् नेतम् दृष्ट्वा भ्रातरम् प्राणसंहितम् हन्यमानम् बलम् चैव शुम्भक्रुद्धो प्रवीजिता बलाबले पादतुष्टे त्वम् मा दुर्गे गर्वमाव अन्यासाम् बलमाश्रित्य युद्धसे यातिमालिनी देव्युवाचो एकैवाहं जगत्यत्र द्वितीया काममापरा पश्यिङ्गा दुष्मयेव विशन्तो मध्यभूतया ततः समस्तास्ता देव्यो ब्रह्माणि प्रमुखालयम् तस्या देव्यासनुग्रमूरेकैवासीत् तथाम्बिका देव्युवाचो अहं विभूत्या बहुवीर्यरूपैर्यदा सदा तत्सङ्गतम् नैकैव धिष्ठाम्याजौ स्थिरो भव ऋषिर्वाचो ततः प्रवृतयुक्तम् देव्या शुम्भस्य चोभयोः पश्याम् सर्वदेवानाम् असुराणाम् च दारुणम् शरभर्षैश्च शस्त्रैस्तथाश्रैश्चैव दारुणैः तयो युद्धमभूय सर्वलोकभयङ्करम् दिव्यान्यस्त्राणि शतशो मुचेयान्धाम्बिका प्रभञ्जतानि दैत्येन्द्रस्तत्प्रतिघातकर्तृभिः मुक्तानि तेन च अस्त्राणि दिव्यानि परमेश्वरि प्रभञ्जलिलेरयोगो हुङ्कारोच्चारणादिभिः ततः शरशतैर्देवी माच्छादयतसोऽसुरा सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः छिन्ने धनुष दैत्येन्द्रस्तथा शक्तिमतारदे चिच्छेद देवीग्रेण तामप्यस्य करे सदाम् ततः खड्गमुपादाय शतचन्द्रम् च भानुभवो अद्यदापतदा देवीम् दैत्यानामधिवेशरा तस्यापतदैवाशु खड्गम् चिच्छेद चण्डिका धनुर्मुक्तैश्चैर्वाणैश्चर्मचार्गपरामलम् अदाश्वसदा दैत्यश्चिन्न धन्वाविसारथि जग्रामुद्गरम् घोरमम्बिकानधनो तथा चिच्छेदापतस्तस्य मुद्गरम् निहतैश्रैः तथापि सोऽभ्युदावत्ता मुषिमुद्गमवेगवान् समुष्णिपादयामास हृदयपुङ्गवः देव्या सञ्जापि सा देवीनो रसराडयो तदः प्रहाराभ्यो निपपातमहीवले दैत्यराजसहसा पुनरेव तथा उत्पत्त्य च प्रवीर्योच्चैर्देवीम् गगनमासदा तत्रापि सा निराधारा यूलेकेन चण्डिका निरुद्धम् खेददा दैत्यश्चण्डिका च परस्परम् चक्रतु प्रथमम् सिद्ध मुनिविस्मयकारकम् ततो नियुद्धम् सुचरम् कृत्वा तेनाम्बिकासो उत्पात्य प्रहारयामासो चिक्षेप धरणी तदे सक्षिप्तो धरणी प्राप्य मुष्टिमुद्यमवेगा अभ्यदावत दुष्टात्मा चण्डिकाघ्नेशयामायान्तम् ततो देवी सर्वदैत्यजनेश्वरम् जगत्याम् पादयामासो कृत्वा शूलेन वक्षसि सर्वदासुपातोर्व्याम् देवी शूलाकर्षता चालयन् सकलाम् कृतकीम् सापिदीपाम् स पर्वताम् ततः प्रसन्नमये तस्मिन् दुरात्मने जगत्स्वास्थ्यमतीवापो निर्मलम् चापवन्वा उत्पादमेकास्वल्काये प्राकासंश्लेषमम्बयु सहतो मार्गवाहिन्यस्तथा संसत्रपादते ततो देवगणाः सरले हर्षनिर्भरमानसाः तभो वर्णेते तस्मिन् गन्धर्वाङ्गतम् यु अवादयन्त दैवान्येन दुश्चाक्षरोगणाः वो पुण्या तथा वाता सुकरो भूतिवाग्रः जज्जदुश्चाग्ने शान्ता शान्तादिगणितसुनाः जगदम्बार्पणमस्तु ॐ नमश्चण्डिकायै ॐ ऋषिरुवाच देव्या हते तत्र महासुरेन्द्रे सेन्द्रासुरावन्निपुरोगमास्ताम् कात्यायनीम् दुष्टवरिष्ठलाभाविकाशवक्ताब्जविकाशिताशाः देवी प्रपन्नार्ति हरे प्रसीद प्रसीदमातरजगतोऽखिलस्य प्रसीदविश्वेश्वरि पाहि विश्वम् त्वमीश्वरी देवि चाचरस्य आधारभूता जगतः स्वमेका मही स्वरूपेण यतस्थितासि अभाम् स्वरूपस्थितया त्वयैदप्यायते कृष्णमलङ्ग्यवीर्ये त्वम् वैष्णवी शक्तिरनन्दवीर्या विश्वस्य बीजम् परमासि माया सम्मोहितम् देवि समस्तमेतत्त्वम् वै प्रसन्ना भुवि मुक्तिहेतु विद्या समस्तास्तव देवि भेदा श्रियः समस्ता सकला जगत्सु त्वयैकया पूरितमम् वयैतत्काले स्तुतिस्तव्यपरापरोक्तिः सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी त्वम् सुता सुयदेवा भवन्तु परमोक्त्या सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्कृते स्वर्गापवर्गदे देवी नारायणि नमोऽस्तुते काष्ठादिरूपेण परिणामप्रदायिनी विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तुते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तुते सृष्टिस्थितिविनाशानाम् शक्तिभूते सनातनि गुणाश्रये गुणमये नारायणि नमोऽस्तुते शरणागतदीनार्द परित्राणपरायणे सर्वस्यापि हरे देवि नारायणि नमोऽस्तुते हंसयुक्तविमानस्ते ब्रह्माणि रूपधारिणि कौशाम् वक्षतिके देवि नारायणि नमोऽस्तुते त्रिशूलचन्द्रायुधरे महावृषभवाहिनी माहेश्वरी स्वरूपेण नारायणि నిధమోస్తుతే మయూరకుక్కుటవృతే మహాశక్తిధరేంద్రకే కౌమారీరూపసంస్థానే నారాయణి నమోస్తుతే శంకరచక్రగదాశార్ఘమీరపరమాయుధే ప్రసీద వైష్ణవీ రూపే నారాయణి నమోస్తుతే గ్రీవోగ్రమహాచక్రే దంశో ధృతవసుందరే వరారూపిణి శివే నారాయణి నమోస్తుతే త్రిసింహరూపేణ హంతుం దైత్యాంకృతోద్యమే త్రైలోక్యత్రాణసహితే నారాయణి నమోస్తుతే క్రీడి మహావజ్రే సహస్రనయనోజ్వలే వృత్రప్రాణహరే చైంద్రీ నారాయణి నమోస్తుతే శివదూజీశ్వరూపేణ హతదైత్యమహాబలే ఘోరూపే మహారాగే నారాయణి నమోస్తుతే దంష్ట్రాకరాలవదనే శిరోమాలా విభూషణే చాముండే ముండమదనే నారాయణి నమోస్తుతే లక్ష్మీ మహావిద్యే శ్రద్ధే పుష్టిస్వదే ధ్రువే మహారాత్రి మహావిద్యే నారాయణి నమోస్తుతే మేధే సరస్వతీవరే భూతివా ప్రసితాంసి నియతే త్వం ప్రసీదేశే నారాయణి నమోస్తుతే సర్వస్వరూపే సర్వేశే సర్వశక్తి సమన్వితే భయగ్రస్తాయినో దేవీ దుర్గే దేవీ నమోస్తుతే ఏతత్తే వదనం సౌమ్యం లోచనత్రయభూషితం పాతునస్రవమీతిభ్యకాత్యాయని నమోస్తుతే జ్వాలాకరాలమత్యుగ్రమశేషాసురసూదనం త్రిశూలం పాతునోభీతేర్భద్రకాళీ నమోస్తుతే వినస్తదైత్యతేజాంసి స్వనేనా పూర్యా జగత్ సా ఘంటా పాతునో దేవీ పాపేభ్యో నస్తుతానివ అసురాశ్రుసా పంకో చర్చితస్తే కరోచులా శివాయ ఖడ్గో భవతు చండికే త్వాం నతా వయమ్ లోకాశేషాన్పంసి దృష్టా రుష్టా తు కామాన్ సకలానవీష్టాన్ త్వమాశ్రుతానాం న విపన్నరాణాం త్వమాశ్రుతాయాశ్రయతాం ప్రయాంతి ఏతత్కృతం యత్కృతనం త్యాజ్యో ధర్మద్విషాం దేవి మహాసురాణాం రూపైరనేకైర్బహుదాత్మమూర్తిం కృత్వాంబికే తత్ప్రకరోతి కాన్యా విద్యాషు శాస్త్రేషు వివేకదీపేషు ఆద్యేషు వాక్యేషు చ కాత్వదన్య మమత్వకర్తేతి మహాంధకారే విభ్రామయత్యేతదీవ విశ్వం రక్షాంసి యత్రోగవిశాశ్రనాగాయత్రారయోదస్యుబలాని యత్ర దావానరో యత్ర తథాప్తి మధ్యే తత్ర స్థితా త్వం పరిపాసి విశ్వం విశ్వేశ్వరీ త్వం పరిపాసి విశ్వం విశ్వాత్మకా ధారయసీతి విశ్వం విశ్వేశ వంద్యా భవతీ భవంతి విశ్వాశ్రయాయే త్వయి భక్తి నమ్రా దేవీ ప్రసీద పరిపాలయ నోరిభీతేర్నిత్యం యథాసురపదాదునైవ సద్యా పాపాని సర్వజగతాం ప్రశమం నయాశు ఉత్పాత పాకజనితాం శ్రమోపసర్గాన్ ప్రణతానాం ప్రసీదత్వం దేవి విశ్వార్తిహారిణి త్రైలోక్యవాసినామీట్యే లోకానాం వరదా భవ దేవ్యువాచ వరదాహం సురగణా పరమ్యం మనసే చద కంవృణధ్వం ప్రయచ్చామి జగతాముపకారకం దేవాచు సర్వాపాదా ప్రశమనం త్రైలోక్యస్యాఖిలేశ్వరి ఏమేవ కార్యమస్మద్వైరి వినాశనం దేవ్యువాచ వైవస్వతేంతరే ప్రాప్తే అష్టావింశతి మే యుగే శుంభో నిశుంభశ్చైవాన్యాముత్సరత్సేతే మాసురౌ నందకోపగృహే జాతా యశోదా గర్భసంభవ తతస్తౌ నాశయిష్యామి వింధ్యాచల నివాసిని పునరప్యతిరౌద్రేణ రూపేణ పృథివీతలే అవదీర్యహనిష్యామి వైప్రతిష్టాం సురానువాన్ భక్షయంత్యాశతానుగ్రాన్ వైప్రతిష్టాన్ మహాసురాన్ రక్తాగంగా భవిష్యంతి దాడిమీ కుసుమోపమాః తతో మాం దేవతా స్వర్గే మర్త్యలోకే చ మానవాః సువంతో వ్యాహరిష్యంతి సతతం రక్తదంతికాం భూయశ్చ శతవార్షిక్యామునా వృష్ట్యామలంబసి మునివశ సంసృతా భూమౌ సంభవిష్యామ్యయోనియా తదశ్యతేన నేత్రాణాం నిరీక్ష్యామి యన్ముని కీర్తయిష్యంతి మునుజా శతాక్షీమితి మాంతః తతోమఖిలం లోకమాత్మదేహ సముద్భవైః మరిష్యామి సురా శాకైరావృష్టే పురాణధారకైః శాకంబరీతి విఖ్యాతం తదా యాస్యామ్యం భువి తత్రైవ చ వదిష్యామి దుర్గమాఖ్యం మహాసురం దుర్గాదేవీతి విఖ్యాతం తన్మే నామ భవిష్యతి పునశ్చాహం యదా భీమం రూపం కృత్వా హిమాచలే రక్ష్యాంసి వక్ష్యయిష్యామి మునినాం ప్రాణకారణాత్ తదా మాం మునయ సర్వే శ్లోష్యంత్యానం ప్రమూర్తయా భీమాదేవీతి విఖ్యాతం తన్మే నామ భవిష్యతి యదారుణాఖ్యస్త్రైలోక్యే మహాబాధాం కరిష్యతి తదాహం బ్రాహ్మణం రూపం కృత్వా సంఖ్యేయ షట్పదం త్రైలోక్యస్య హితార్థాయ వదిష్యామి మహాసురం रामनीतिजमाम् लोका सदा स्तोष्यन्ति सर्वदा इत्थम् यदा यदा वादा दानभूत्था भविष्यति तदा तदावतीर्याहम् करिष्याम्यति संशयम् जगदम्बार्पणमस्तु ॐ नमश्चण्डिकायै ॐ देव्युवाच एभिस्तवैश्च माम् नित्यम् स्तोषते यः समाहिता तस्याहम् सकलाम् बाधाम् नाशयिष्याम्य संशयम् मधुकैटवनाशम् च महिषासुरघातनम् कीर्तयिष्यन्ति एतद्वद्वसम् शुम्भनिशुम्भयो अष्टम्याम् द्विचतुर्दश्याम् नवम्याम् चैकजेत्सा श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् तदेषाम् दुष्कृतम् किञ्चित् दुष्कृतः न जावता वदिष्यति दारिद्र्यम् न चैवेष्टवियोजनम् शत्रुतो न भयम् कस्य दस्युतो वा न राजतःको योगः कदाचित् सम्भविष्यति तस्मान्ममैतन्माहात्म्यम् प्रतव्यम् समाहितैः श्रोतव्यम् च तदा भक्त्या परम् सनयनम् ततो उपसर्गानशेषांसु महामारी समुद्भवा तथा त्रिविधमुत्पातम् महात्म्यम् शमयेन्मम यत्रैतत्पठ्यते सम्यग् नित्यमायतने मम सदा नव्यमोक्ष्यामि सान्निध्यम् तत्र मे स्थितम् बलिप्रदाने पूजायामग्निकार्ये महोत्सवे सर्वम् ममैतच्चरितमुच्चार्यम् श्राव्यमेव च जानता जानता वापि बलिपूजाम् तदा कृताम् प्रतीक्षिष्याम्यम् प्रीत्या वह्निहोमम् तदा कृतम् शरत्काले महापूजा क्रियते या च वार्षिके तस्याम् मैतन्माहात्म्यम् श्रुत्वा भक्तिसमन्विता सर्वा बाधा विनिर्मुखो धनधान्यसुतान्विता मनुष्यो मत्प्रसादेन भविष्यति न संशया श्रुत्वा मैतन्माहात्म्यम् तथा चोत्पत्तय शिवाः पराक्रमम् च युद्धेषु जायते निर्भय पुमान् निर्भवसंशयम् यान्ति कल्याणम् चोपपद्यते नन्दते च कुलम् पुंसाम् माहात्म्यम् मम शृण्वताम् शान्तिकर्मणि सर्वत्र स्वप्नदर्शने गृहपीडासु माहात्म्यम् शृणुयान्मो उपसर्गाक्षमम् यान्ति गृहपीडाश दारुणाः स्वस्वप्नम् च निवरदृष्टम् सुस्वप्नमुपजायते बालग्राहभूतानाम् बालानाम् शान्तिकारकम् सङ्गातभेदे जनाम् मैत्रीकरणमुत्तमम् दुर्वृत्तानामशेषाणाम् बलानिकरम् परम् रक्षो भूतृशाचानाम् पठनादेव नाशनम् सर्वम् ममैतन्माहात्म्यम् मम सन्निधिकारकम् पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः विप्राणाम् भोजनैरोमै प्रोक्षणीयैरानिशम् अन्यैश्वरिगैर्भोगै प्रधानैर्वत्सरेणया क्रीतिर्मे कृते सहस्रिंशते श्रुतमरति पापानि तथारोग्यम् प्रयच्छति रक्षाम् करोतु भूतेभ्यो जन्मनाम् कीर्तनम् मम युद्धेषु चरितम् जन्मे दुष्टदैत्यनिवारणम् तस्मिन् श्रुते वैरिकृतम् भयम् पुंसाम् न जायते युष्माभि सुयो याश्च याश्च ब्रह्मशिवीकृताः ब्रह्मणा जग्रास्तास्तु प्रयच्छन्ति शुभाम्बिम् अरण्ये प्रान्तरे वापि दावाग्निपरिवारता दस्युभिर्वावृतः शून्ये गृहीतो वापि शत्रुभिः सिंहव्याघ्रान्यातो वा वने वा वनहसिभिज्ञाकृत्वेन चाज्ञप्तो वद्यो बन्धगतोऽपि वा आकुर्णितो वातेन सिद्ध पोते मार्णवे परत्सु चापि शस्त्रेषु सङ्ग्रामे वृषदारुणे सर्वापाधासु होरासु वेदनाभ्यर्गतोऽपि वा स्मरन्मैतच्चरितम् नरो मुच्येत सङ्कटात् मम प्रभावात् संवाद्यादस्य वो वैरिणसदा दूरादेव प्रदायन्ते स्मरतश्चरितम् मम ऋषिरुवाच इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा पश्यतामेव देवानाम् तत्रैवान्तरधीयतो तेऽपि देवानिराधिनः स्वाधिकारान्यथा पुरा यज्ञवागमुरः सर्वे चकुरुर्विहतारयः दैत्याश्च देव्या नियते शुम्भे देवरुपौयुधि जगदति ध्वंसिनि तस्मिन् महोग्रे तुलविक्रमे निशुम्भे च महावीर्ये शेषाः पातालमायुः एवम् भगवती देवी सान्नित्याऽपि पुनः पुनः सम्भूय कुरुते भूपो जगत्परिपालनम् तैतन्मूयते विश्वम् सैव विश्वम् प्रसूयते सा याचिता विज्ञानम् पुष्टा वृद्धिम् प्रयच्छति व्याप्तम् तैतत् सकलम् ब्रह्माण्डम् मनुजेश्वरो महाकाल्या महाकाले महामारी स्वरूपया सैव काले महामारी सैव सृष्टिर्भवत्या स्थितिम् करोति भूतानाम् सैव काले सनातनि भवकालेनाम् सैव लक्ष्मीर्वृद्धिप्रदाग्रे सैवाभावे तथा लक्ष्मीर्विनाशायोपजायते सा सम्पूजिता पुष्पेर्धूपगन्धादिविस्तरा मधुनर्मेगतिम् शुभाम् जगदमार्पणमस्तु ॐ नमश्चण्डिकायै ॐ ऋषिर्वाच एतत्रेकथितं भूपो देवी माहात्म्यमुत्तमम् एवं प्रभावा सा देवी एदं दास्यते जगो विद्या तथैव प्रकृते भगवद्विष्णुमाया त्वमेष वैश्यश्चोत्तथैव अन्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे तामुपै महाराजो शरणं परमेश्वरीम् आराधिता सैव नाम भोगस्वर्गापवर्गदा मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा सुरथः सुनराधिपा प्रणिपद्य महाभागम् तमुशंशंसितव्रतम् निर्विण्णोतिमत्वेन राज्यापहरणेन च जगामसत्यस्तपसे स च वैश्यो महामुने सन्दर्शनार्थम् माया नदी पूरितम् सदा स च वैश्यस्तपस्ते मे देवी सूक्तम् परम् जपम् तौ तस्मिन् पुरने देव्या कृपामूर्तिमहिमहिम् अर्हणाम् च कृतस्या पुष्पधूपाभिदर्पणैः युदाहारौ युदाहारौ तन्मनस्कौ समाहितौ ददतुस्थौ बलिम् चैव निजगात्रासुभुक्षितम् एवम् समाराधयतौ स्थितिर्वृषयुदात्मनोः परिदृष्टा जगद्रात्रि प्रत्यक्षम् प्राह चण्डिका देवि उवाच यत्प्रार्थते त्वया भूप त्वया च कुलनन्दन मत्तस्तत्रापिताम् सर्वम् परिदृष्टा ददामि ततो मार्कण्डे उवाच त्रिपोराज्यमनि अत्रैव निजम् राज्यम् मदशत्रुबलम् बलात् सोऽपि वैश्यस्ततो ज्ञानम् वव्रे निर्विण्यमानसा ममेत्यामिति प्रार्थ्य सृङ्गविच्युतिकारकम् देवि उवाच स्वल्पैर्हो वै द्रवते स्वम्राज्यम् प्राप्स्यते भवान् हत्वा रिपुनः स्खलितम् तव तत्र भविष्यति मृतश्च भूयः सम्प्राप्यो जन्म देवापि वस्तुतः सावर्णिको नामान् भूयि भविष्यति वैश्यवर्यत्रायश्च बलोऽस्मत्तोऽभिवाञ्छितः तम् प्रयच्छामि संसिद्धे तव ज्ञानम् भविष्यति मार्कण्डे उवाच इति तत्त्वादयो देवी यथा विलषितम् धनम् बभूवान्तरिता सद्यो भक्त्या ताभ्यामिविष्टता एवम् देव्यावरम् दत्त्वा सुरदर्शक्रियशिवः सूर्याध्यन्म समासाद्यो सावर्णिर्भविता मनु ॐ सावर्णिर्भविता मनु जगदम्बार्पणमस्तु खड्गिनी शूर्णी घोरा गदिनी चक्रिणी तथा शङ्खिनी चारुणी बाणौ भुषुण्डी परिगायता हृदयाय नमः शूलेन पायिनो देवी पाहि खड्गेन शाम्बिके घण्टासुनेन पाहि चापज्या निःस्वनेन च शिरसे स्वाहा प्राच्यां रक्षपति चाञ्च चण्डिके रक्षदक्षिणे रामणेनात्मशूलस्य उत्तरस्य रामप्रदेश्वरी शिखाय वषड सौम्यानि यानि रूपाणि त्रैलोके विचरन्ते यानि चाध्यर्थघोराणि तैरक्षासनान् तथा भुवम् कवचायुम् करवशूलकदानीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः नेत्रत्रयाय वंषट सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयभ्यस्त्राय नो देवी दुर्गे देवी नमोऽस्तु ते
स्थिताम् कन्याभिकरलालखेट विलसद्धस्ताभिरासेविताम् हस्तैश्चक्रकदाशिखेट विशिखाश्चापम् गुणम् तर्जनी बिभ्राणामनलात्मिकाम् शशिधराम् दुर्गाम् नृणेतराम् भजे नमो देव्यै महादेव्यै शिवायै सततम् नमः नमः प्रकृत्यै भद्रालयै नियता प्रणता स्मराम् रौद्रायै नमो नित्यायै भव्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्द्ररूपिण्यै सुखायै सततम् नमः कल्याण्यै प्रणताम् वृद्ध्यै सिद्ध्यै पूर्मो नमो नमः नैत्यै भूभृताम् लक्ष्म्यै शर्वाण्यै ते नमो नमः दुर्गायै दुर्गपालायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै ओम्रायै सततम् नमः अतिसौम्यादिरौद्रायै तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु कृष्णारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः इन्द्रियाणामधिष्ठात्रि भूतानां चाखिलेषु भूतेषु सततं तस्यै व्याप्यदेव्यै नमो नमः चितिरूपेण या कृष्णमेतद्व्याप्योऽस्तिता जगतो नमस्तस्यै 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 नमो नमः सुस्तारे पूर्वमेष संशया तथा सुरेन्द्रेण दिनेषु सेविता करोतु सा न श्रुभयेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदा या साम्प्रतम् चोद्धृतैत्यतापितैः रस्माभिरीशाय सुरैर्नमस्यते या च स्मृता तत्क्षणमेव हन्तिना सर्वा पदो भक्तिविनम्रमूर्तिः जय दुर्गे जय दुर्गे जय दुर्गे शिव दुर्गे शिव दुर्गे शिव दुर्गे अम्बे मातृकी जय पार्वणमस्तु।